ఉషణ్వైవాదశ్రవసర్వేదసందౌ తస్య హనచికేతానామ పుత్రాసంహకుమారుంసంతం దక్షిణాభిలీయమానాశ్రద్ధావివేశ సహోవాచ తదకస్మైమాందాసీతి ద్వితీయం తృతీయం తగుంహపరీత ఉవాచ ప్రత్యవేత్తాదామీతి తగుంహస్మోక్షితం వాగభివదతి గౌతమకుమారమిది సహోవాచ మయేషు మృత్యోర్గృహాన్ మృత్యవేవేత్వాదామిది తమం వై ప్రవసంతం గంతాసీతి హోవాచ తస్మతిస్వరాత్రేణాశ్వాగృహే వసదా పృచ్చేత్ కుమారగతిరాత్రేరవాప్సీరితి విశ్వేతి ప్రతిబ్రూదాత్ కిం ప్రసమాగం రాత్రిమాష్టాయిది ప్రజాంతయిది కిం ద్వితీయామిది అశోకస్తయిది కిం తృతీయామిది సాధుగృత్యాంతయిది తమ వై ప్రవసంతం జగామ తస్వరాత్రేరణాశ్వాంగ్రహవాస తమాగత్యమప్రచ్ఛ కుమారగతిరాత్రేరవాసీరితి విశ్వేతి ప్రత్యువాచ కిం ప్రథమాగం రాత్రిమాష్టాయిది ప్రజాంతయిది కిం ద్వితీయామిది అశోకస్తయిది కిం తృతీయామిది సాధుకృత్యాంతయిది నమస్తేస్తు భగవగిరిహోవాచ వరం వృణేష్మేది విధనమేమ జీవన్మయానీతి ద్వితీయం వృణేష్మేది ఇష్టాపూర్తయోర్మేక్షతిం బ్రౌహీతి హోవాచ తస్మై హైతమగ్నిర్నాయకేతమువాచ తదో వేతస్యేష్టాపూర్తేనాక్షీయతే క్షీయతేనాచికేతంచినుదే యోజేనమేవం వేద తృతీయం వృణేష్వేది మృత్యోర్మేపజలిం బ్రూహీతి హోవాచ తస్మై హైతమగ్నిర్నాచికేతమువాచ తదో వేదోపునర్మృత్యుమలేన అపునర్మృత్యుంజయతి యోగ్నిర్నాచికేతంచినుదేనమేవం వేద ప్రజాపతిర్మే ప్రజాకామస్తపోతప్యత
ప్రాస్యతే సమేతమేవనావిందే యస్మైతాం దక్షిణామనేష్యతే ఆగస్మాయై మహస్తాయ దక్షిణాయాలయతే తాం ప్రత్యగృహ్ణాత్ దక్షాయత్వా దక్షిణాం ప్రతిగృహ్ణామేతి సో దక్షత దక్షిణాం ప్రతిగృహ్య దక్షతే హవే దక్షిణాం ప్రతిగృహ్య ఏవం వేద ఏతద్ధస్మేతద్విద్వాగుంసో వాజశ్రవసా గౌతమాః అప్యనో దేశ్యాం దక్షిణాం ప్రతిగృహ్ణంతి ఉభయేన వయం దక్షిష్యామః ఏవ దక్షిణాం ప్రతిగృహ్యేతి తే దక్షం దక్షిణాం ప్రతిగృహ్య దక్షణే హవే దక్షిణాం ప్రతిగృహ్య ఏవం వేద ప్రాణ్యం లీనాది తగుహైతమేకే పశుబంధకే వోత్తరవేద్యాచిన్వతే ఉత్తరవేది సంవిదగేషోగ్నిర్దివదంతరన్నకుర్యాత్ ఏతమగ్నిం కామేణ వ్యర్థయేత్ శ్రేయణం కామేణ వ్యర్థ కామేణ వ్యర్థయేత్ సౌమ్యే వామేణమద్ఫలే చిన్వీత భూయిష్ఠా ఆహుతయో హూయేరన్నే ఏతమగ్నిం కామేణ సమర్థయతి శ్రయేణం కామేణ సమర్థ కామేణ సమర్థయతి అథ హైణం పునర్షయ ఉత్తరవేద్యామేవ సత్రియమచిన్వద తదో వీదే విందంత ప్రజా అభిస్వర్గం లోకమజయన్ విందదేవ ప్రజా అభిస్వర్గం లోకం జయతి యోగ్నాచికేతేనమేవం వేద అథహీనం వాగనర్థికామః యథాన్యుక్తమేవోపదధే తదో వీదేతామర్థ్యమార్థనోత్ యామిదం వాగనర్థః ఏతామర్థ్యమర్థనోతి యామిదం వాగనర్థః యోగ్నిర్నాచికేతంచినుతేనమేవం వేద అసహైనం గోపలో వాష్ట పశుకామ వాంతమే విజిజ్ఞే पञ्चपुरस्तात् पञ्चदक्षिणतः पञ्चपश्चात् पञ्चोत्तरतः एकाम् मध्ये ततो वै सहस्रम् पशून् प्राप्नोत् सहस्रम् पशूनाप्नोति योऽग्निन्नाचिकेतम् चिनुते यौजैनमेवम् वेद अथैनम् प्रजापतिर्ज्येष्ठकामोषिकामः प्रजननकामः त्रिपदमेव नित्ये सप्तपुरस्तात् तिस्रोदक्षिणतः सप्तपश्चात् तिस्रोत्तरतः एकाम् मध्ये ततो वेदप्रेषो ज्येष्ठमाप्नोत् एताम् प्रजातिम् प्राजायत यामिदम् प्रजाः प्रजायन्ते त्रिवृद्वै ज्येष्ठम् माता पिता पुत्रः त्रिपत्प्रजननम् उपस्थो योजन्मध्यमा प्रयतो ज्येष्ठमाप्नोति एताम् प्रजातिम् प्रजायते यामिदम् प्रजाः प्रजायन्ते योऽग्निन्नादिकेतञ्चिनते यौजैनमेवम् वेद अथ एनमिन्द्रो ज्येष्ठकामः ऊर्ध्वा एवोपदधे ततो वेदज्येष्ठमगच्छत् ज्येष्ठम् गच्छति योऽग्निन्नादिकेतञ्चिनते यौजैनमेवम् वेद अथ एनमुतावादित्यस्वर्गकामः प्राजीरेवोपदधे ततो वेदाभिस्वर्गम् लोकमजयते अभिस्वर्गम् लोकम् जयति योऽग्निन्नादिकेतम् चिनुते यौजैनमेवम् वेद हयदीच्छेत् तेजस्वी यशस्वी ब्रह्मवर्तसे स्यामिति प्राणाहोदर्भिष्ट्यादुत्सर्पेत् येयम् प्राघाद्विशस्वति सा मा प्रोन्नोतो तेजसा यशसा ब्रह्मवर्तसेनेति तेजस्वेव यशस्वी ब्रह्मवर्तसे भवति अभिदीक्षेत् भूयिष्ठम् मे श्रद्धीरन् भूयिष्ठा दक्षिणानयुति दक्षिणातु लीयमानासु प्राच्येः प्राच्येहेति प्राचेजुधानावे त्वाद्यस्य स्वाहेजुश्रुवेणोपहत्याहवनीये जुहुयात् भूयिष्ठमेवास्मै श्रद्धधये भूयिष्ठा दक्षिणानयन्ति पुरेशमुपधाय चिरकृत्यभिदृश्य अग्निम् प्रणीयोपसमासाय तस्वेताहुतेर्जहोति त्वमग्नेर्द्रैशतुर्देयस्य रूपम् अग्ना विष्णो इवसोऽर्धारायाः अन्नपद इत्यन्नहोमः सप्तजयज्ञेरभिषस्तब्दयिक्वायुविश्वप्रेः याम् प्रथमाविष्टकामुपधाने इमन्तया लोकमभिजये अथो या अस्मिल्लोके देवताः तासायुज्यमिन्द्रलोकदामाप्नोति याम् द्वितीयामुपधाने अन्तरिक्षलोकन्द्रयाभिजये अथो यान्तरिक्षलोके देवताः तासायुञ्जायुज्यगुन्दलोकदामाप्नोति याम् तृतीयामुपधाने अमुन्तया लोकमभिजये अथो यामुष्मल्लोके देवताः तासायुञ्जायुज्यगुन्दलोकदामाप्नोति अथो यामूलिकराष्टादशा एवामे मुरवस्तवरीयागुण्डस्त्रलोकाः तानेव ताभिरभिजये कामचारो हवास्तोरुषदवलीयस्त्रलोकेषु भवति योऽग्निर्नादिकेतञ्चिनुते यौजैनमेवम् वेद संवत्सरो वा अग्निर्नादिकेतः कस्य वसन्दशिरः ग्रीष्मा दक्षिणः पक्षः वर्षा उत्तरः शरत्पुच्छम् मासाकर्मकाराः अहोरात्रेषु रुद्रीयम् पर्जन्यावसोऽर्धाराः यथा वै पर्जन्यस्वपृष्टम् दृष्ट्वा प्रजाभ्यः सर्वान् कामान् सम्पूरयति एवमेव सर्वान् कामान् सम्पूरयति योऽग्निर्नाचिकेतञ्चिनुते यौजैनमेवम् वेद संवत्सरो वाग्निर्नाचिकेतः तस्य वसन्तशिरः ग्रीष्मो दक्षिणः पक्षः वर्षाः पुच्छम् शरदुत्तरः पक्षः हेमन्तो मध्यम् पूर्वपक्षाश्चितयः अपरपक्षाः पुरीशम् अहोरात्राणीष्टकाः एतवापसोः अग्निरग्निमयपुरन्नवः अग्निमयो हवे पुनर्नवो भूत्वा स्वर्गम् लोकमेति आदित्यस्य दारिद्र्यम् यो अग्निर्नादिकेतम् चिनुते यूतेनमेवम् वेद ॐ तुभ्यन्तान्यस्तमाश्यामदम् काममग्ने आशानाम् त्वा विश्वासाः
अर्णोद्यानमधुरन्विदनुमजे त्वम् कामोभूतस्य कामस्तदग्रे ब्रह्मयज्ञानम् पिता विराजाः यज्ञो रायो यज्ञः आपो भद्राहादिपश्यामि तुभ्यम् फलम् द्रियो देह्यः पूर्वन्देवापरेण प्राणापाणौ अभिवाहज्ञस्पष्टम् देवेभ्यो वै स्वर्गो लोकस्थिरो भवय ते प्रजापतिमब्रुवन् प्रजापते स्वर्गो वै नो लोकस्थिरो भूत् तमन्विच्छेदे तैयज्ञकृतुभिर्वैक्षते तैयज्ञकृतुभिर्नान्वविन्दते अमृष्टिभिरन्वैक्षते अमृष्टिभिरन्वविन्दते त्रिष्टेनाविष्टित्वम् यत्रयो हरिनाम तायुक्त ईर्त्यादक्षरे परोक्षेण परोक्षप्रियायुभिदेवाः तमाशाः ब्रवीत् प्रजापद आशयावेशाम्यसि अहमुपाशाः अस्मि महान्वेदस्वात् अस ये सत्याशा भविष्यति हरस्वर्गम् लोकम् वेत्सचेति स एतमग्नये कामाय पुरोणाशमष्टाकपालञ्जनमवदे आशायीशरम् अनुभक्तेश्वरम् तदो वेदस्य सत्याशा भवति अनुस्वर्गम् लोकमवेन्दते सत्याः वा अस्याशा भवति अनुस्वर्गम् लोकम् व्यन्दते एतेन हविधायते यौदेन एवम् वेद श्रोत्रजहोति अग्नये कामाय स्वाहा शायै स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहा अग्नये सुष्टकृते स्वाहेति हङ्गामो ब्रवीत् प्रजापदे कामेन वैश्राम्यसि अहमे कामोऽस्मि माम् नयजस्व अथये सत्यः कामो भविष्यति अनुस्वर्गम् लोकम् व्यत्सीति स एतमग्नये कामाय पुरोणाचमष्टाकपालञ्जनमपदे कामाय धरम् अनुमत्तेतरम् ततो वेतस्य सत्यः कामो भवते अनुस्वर्गम् लोकमविन्दते सत्यो हवास्य कामो भवति अनुस्वर्गम् लोकम् विन्दति एतेन हविषागते अभुजेन देवम् वेद श्रोत्रजहोति अग्नये कामाय स्वाहा कामाय स्वाहा अनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहा अग्नये तिष्ठकृते स्वाहेति अहम् ब्रह्माब्रवीत् प्रजापते ब्रह्मणा वैश्राम्यसि अहम् वै ब्रह्मास्मि माम् नयजस्व अथ ते ब्रह्मन्वानयज्ञो भविष्यति अनुस्वर्गम् लोकम् व्यत्स्यसीति स एतमग्नये कामाय पुरोडाकमष्टाकपालन्दिनपपदे ब्रह्मणेतरम् अनुभत्तेतरम् ततो वेदस्य ब्रह्मन्वानयज्ञो भवत् अनुस्वर्गम् लोकमविन्दते ब्रह्मन्वानहवास्य यज्ञो भवति अनुस्वर्गम् लोकम् विन्दते यगेतेन हविधायते युजेन देवम् वेद श्रोत्रजहोये अग्नये कामाय स्वाहा ब्रह्मणे स्वाहा हनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहा अग्नये स्पष्टकृते स्वाहेति यज्ञोऽब्रवीत् प्रजापते यज्ञेन वैश्राम्यसि अहमुपैयज्ञोऽस्मि मान्मयजस्व असदे सत्यो यज्ञो भविष्यति अनुस्वर्गम् लोकम् वेत्सरेति स्वगेतमग्नये कामाय पुरोणाशमष्टाकपालन्दिनमपजे यज्ञायतरम् अनुमत्तेतरम् ततो वेदस्य सत्यो यज्ञो भवति अनुस्वर्गम् लोकमविन्दते सत्यो हवास्य यज्ञो भवति अनुस्वर्गम् लोकम् विन्दते एतेन हविधायते यूतेन देवम् वेद श्रोत्रजहोदे अग्नये कामाय स्वाहा यज्ञाय स्वाहा हनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहा अग्नये स्पष्टकृते स्वाहेति अवापो ब्रुवन् प्रजापते सुवे सर्वे कामाश्राः अयमुवा आपस्मः अस्मान्नयजस्प असत्तये सर्वे कामाश्रयिष्यन्ते अनुस्वर्गम् लोकम् वेत्सदेति स एतमग्नये कामाय पुरोणाचमष्टाकपालम् निरवपदे अभ्यश्चरम् अनुमत्येतरम् ततो वेदस्मिन् सर्वे कामाश्रयन्त अनुस्वर्गम् लोकमविन्द्रे सर्वे हवास्मिन् कामाश्रयन्ते अनुस्वर्गम् लोकम् विन्दति यगेतेन हविषायजते युजेन देवम् वेद श्रोत्रयोति अग्नये कामाय स्वाहाभ्यस्वाहा అనుమత్యై స్వాహా ప్రజాపతయే స్వాహా స్వర్గాయ లోకాయ స్వాహాగ్నయే స్విష్టకృతే స్వాహేది తమగ్నిర్బలిమానం భవేత్. ప్రజాపతేగ్నే వైపలిపదే సర్వాణి భూతాయ బలిగం హరంతి అహముపాగ్నిర్బలిమానస్మి మాన్వేదస్వా అథతే సర్వాణి భూతాయ బలిగం హరిష్యంతి అనుస్వర్గం లోకం వేత్సరీ సగేతమగ్నే కామాయ పురోటాదమష్టాగమానందిరవపదే అగ్నే బలిపదే జలం అనుమత్తే జలం తదోమేతస్మై సర్వాణి భూతాని బలిమహరన్ అనుస్వర్గం లోకమమిందన్ సర్వాణి హవాస్మై భూతాని బలిగం హరంతి అనుస్వర్గం లోకం విందేన దేవం వేద సోత్రి అగ్నే కామాయ స్వాహా అగ్నే బలిపదే స్వాహా అనుమత్తే స్వాహా ప్రజాపతయే స్వాహా స్వర్గాయ లోకాయ స్వాహాగ్నే స్వృష్టకృతే స్వాహేతి తమనువిత్తిరబ్రవీత్. ప్రజాపతే స్వర్గం మే లోకమను విమిత్సతి అహమువానువిత్తిరస్మి మాన్మిగస్వా అసలే సత్యానువిత్తిర్భవిష్యతి అనుస్వర్గం లోకం వేత్సతి సగేతమగ్నే కామాయ పురోడాసమష్టాగపాలంజలవపజె అనువిత్తే జలం అనుమత్తే జలం తదో వేదస్య సత్యానువిత్తిరభవజ అనుస్వర్గం లోకమవిందే సత్యాహమాస్యానువిత్తిర్భవతి అనుస్వర్గం లోకం విందే ఏదేన హవిషాయుజే యోజేన దేవం వేద సోత్రజుహోది అగ్నయే కామాయ స్వాహానువిత్తే స్వాహా అనుమత్యే స్వాహా ప్రజాపతయే స్వాహా స్వర్గాయ లోకాయ స్వాహాగ్నయే శ్రేష్టకృతే స్వాహేది నామాజేతా సప్త స్వర్గస్య లోకస్య ద్వార వివశ్యే నయోనువిత్తయో నామ ఆశా ప్రథమా గోరక్షతి కామో ద్వితీయా బ్రహ్మ తృతీయా యజ్ఞశ్చతుర్థీ ఆపః పంచమీ అగ్నిర్బలిమాన్ షష్ఠీ అనువిత్తి సప్తమీ అనుభవే స్వర్గం లోకం విందతి కామకారోస్య స్వర్గే లోకే భవతి ఏదాభిరిష్టభిర్విదతే యువతైనా ఏవం వేద తాస్వన్విష్టి పష్ఠో హి వరాంతర్జాత్రగుంసంజ స్త్రీయాభారగం సమృద్ధి తపసా దేవా దేవతామగ్రాయన్ తపసర్ణవిందన్ తపసా సుభత్రాణుధామారాదే ఏనేదం విశ్వం పరిభోజయ్యదస్తి ప్రథమజం దేవయో హవిషా విధేమ స్వయంభ బ్రహ్మవరమన్నమోయన్ సగేవ పుత్రస్య పితాసు మాతా తమోహ యక్షం ప్రథమగం సంబభూవ శ్రద్ధయా దేవో దేవత్వమశ్రుతే శ్రద్ధా ప్రతిష్టా లోకస్య దేవీ సానోనిషానోపయజ్ఞమాగాద్ కామవత్సామృతం దుహానా శ్రద్ధా దేవీ ప్రథమజాదితస్య విశ్వస్య భక్త్రే జగత్ ప్రతిష్టా కామి శ్రద్ధాగం హవిషా యజామహే సానో లోకమృతం దృధాదు ఈశానాదేవీ భువనస్యాధిపత్ని ఆగాత్ సత్యగం హవిరదం జుషాణం యస్మాత్ దేవాయజ్ఞే భువనం చ విశ్వే తస్మై విధేమ హవిషాధేన యథాదేవీ సమాజం వదేమ యస్య ప్రతిష్టోర్వంతరిక్షం యస్మాత్ దేవాయజ్ఞే భువనం చ సర్వే తత్సత్యమర్చతు యజ్ఞన్నాగాత్ బ్రహ్మాహుదీర్వమోదమానం మనసోపశే సర్వమిదం భూవ నాన్యస్య మనోపశమన్యాయ భీష్మో హి దేవసహసస్తహీయాన్ సనోనిషానపరిజ్ఞమాగాద్ ఆగూదీనామధిపతిజేతసాం చ సంకల్పజూజం దేవం విపశ్చిం మనోరాజానమిహ వర్ధయంతః ఉపహవే సుమతోస్యామ శరణం పవిత్రం విజతం పురాణం ఏన భూతస్తరదుష్కృతాని తేన పవిత్రేణ శుద్ధేన భూతాః అదివ ఆత్మానమరాదింతరేమ లోకస్య ద్వారమచ్చిమత్ పవిత్రం జ్యోతిష్మద్భ్యాజమానం మహస్పద్ అమృతస్య ధారామగుధాదోహమానం శరణం నో లోకే సుషితాం దధాతు అగ్నిర్మూర్ధా భువః అరుణోద్యానమదరణ్యనమదే త్వం హవ్యవాహగ్నిష్టం దేవేభ్యో వై స్వర్గో లోకస్థిరో భవత్ హే ప్రజాపతిమబ్రువన్ ప్రజాపతే స్వర్గో వైనో లోకస్థిరో భూత్ తమన్విచ్ఛేది తయ్యజ్ఞకృతిభిరన్వైచ్ఛ తయ్యజ్ఞకృతిభిర్నాన్వవిందన్వైచ్ఛ तमिष्टन्द्रविन्द्रे सृष्टेनाविष्टित्वम् एष्टयो वै नाम इष्ट इत्याविष्टे परोक्षेण परोक्षप्रियायुधि देवाः तन्तपोऽप्रवीर प्रजापते तपसा वैश्याहन्विषे अहमुपैतपोऽस्मि मान्वेजस्व अथये सत्यन्तपो भविष्यति अनुस्वर्गम् लोकम् वेत्सजेति सहेतमाहान्येजमष्टागपालम् निरभवत् तपसे जलम् अनवर्त्ये जलम् सत्यन्तपो भवत् अनुस्वर्गम् लोकमिन्द्रे सत्यगम् भवा सदमा भवते अनुस्वर्गम् लोकम् इन्द्रे यदेनविधायतेन वेद श्रोत्रजहोति अग्नये स्वाहा तपसे स्वाहा अनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्वाहेदे तग्निश्रद्धाब्रवीद प्रजापते श्रद्धया वैश्राम्यसि अहमुवै श्रद्धास्मि माग्नयजस्व अथये सत्या श्रद्धा भविष्यति अनुस्वर्गम् लोकम् वेत्सरीति स एतमाज्ञेयमष्टागपालम् जलभवत् श्रद्धायैतरम् अनुमत्येतरम् तदोऽपि तस्य सत्याः श्रद्धा भवते अनुस्वर्गम् लोकमविन्दते सत्याः वास्य श्रद्धा भवति अनुस्वर्गम् लोकम् विन्दति अजेन विधायते यूतेन देवम् वेद स्वातुजहोदे अग्नये स्वाहा श्रद्धायै स्वाहा हनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहा अग्नये स्विष्टकृते स्वाहेति एकम् सत्यमम् ब्रवीन् प्रजापते सत्येन वैश्राम्यसि अहमपि सत्यमस्मि मान्यजस्व असते सत्यकम् सत्यम् भविष्यति अनुस्वर्गम् लोकम् वेत्सरेति सकेतमाज्ञेयमष्टाकपालम् जलपपदे सत्यायुधरम् अनुमत्येतरम् ततोऽपि तस्य सत्यकम् सत्यमभवदे अनुस्वर्गम् लोकमविन्दते सत्यकम् भवास्य सत्यम् भवति अनुस्वर्गम् लोकम् विन्दति ूतेन देवम् वेद स्तोत्रजहोति अग्नये स्वाहा सत्याय स्वाहा अनुपत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहा अग्नये सृष्टकृते स्वाहेति ब्रह्मणोः ब्रवीत् प्रजापते मनसा वैश्रान्विषे अहमुवै मनोऽस्मि मान्वेदस्व अथले सत्यम् मनो भविष्यति अनुस्वर्गम् लोकम् वेत्सरेति अयेतमाज्ञेयमष्टागपालम् जलभवने मनसेतरम् अनपत्येतरम् ततोऽपि तस्य सत्यम् मनो भवते अनुस्वर्गम् लोकमविन्दते सत्यम् भवास्य मनो भवति अनुस्वर्गम् लोकमविन्दते अयेतेन हविहायते यौतेन देवम् वेद स्तोत्रजहोति अग्नये स्वाहा मनसे स्वाहा अनुमत्यै स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नये स्पष्टकृते स्वाहेदे अयञ्चरणमब्रवीत् प्रजापते चरणेन वैश्राम्यसि अहमुवै चरणमस्मि मान्वेजस्व अथले सत्यम् चरणम् भविष्यति अनुस्वर्गम् लोकम् वेत्सरेति स एतमाहाग्नेयमष्टागपालम् जलमपदे शरणाय जलम् अनुमत्ये जलम् ततोऽपि तस्य सत्यम् चरणमभवत् अनुस्वर्गम् लोकमविन्दते सत्यम् चरणम् भवते अनुस्वर्गम् लोकम् विन्दते अलेन हविहायते दूरेण एवम् वेद स्तोत्रजहोति अग्नये स्वाहा चरणाय स्वाहा अनुमत्यै स्वाहा प्रजापते स्वाहा स्वर्गाय लोकाय स्वाहाग्नये सृष्टकृते स्वाहेदे तावागेता पञ्चस्वर्गस्य लोकस्य द्वारः अपाघानवित्तयो नाम तपः प्रथमागौ रक्षति श्रद्धा द्वितीयाः सत्यन्तीयाः मनश्चे शरणम् पञ्चमे अनुभवे स्वर्गम् लोकम् विन्दति कामचारोऽस्य स्वर्गे लोके भवति एताभिरिष्टभिर्यजते यूतेना एवम् वेद तास्मन्विष्टे अष्टौहेमनाग्रन्त्यात्कंसञ्च स्त्रियै च भारयौ समृद्धे ब्रह्मवे चतुर्होदारः चतुर्होदर्भ्योऽधिज्ञोऽजन्मिनः नैनकम् शब्दम् नाभिजलमागच्छति एवम् वेद चतुर्भवे चतुर्होदनाम् चतुर्होदृतमम् वेद अथो पञ्चहोदृत्तम् सर्वाः स्मैभिषः कल्पन्ते वायस्पतिर्होतादृशहोत्रेणाम् पृथिवीर्होताचतुर्होत्रेणाम् अग्निर्होतापञ्चहोत्रेणाम् वाग्भोताषड्भोत्रेणाम् महाविरहोतालुप्तहोत्रेणाम् एतद्वैचतुर्होत्राचतुर्होत्रताम् अथो पञ्चहोदृत्ताम् सर्वाः अस्मै च कल्पन्ते यगेवम् वेद येषा मयि सर्वविद्या एतद्भेदजम् एषा पञ्चस्वर्गस्य लोकस्याञ्जलागिनिस्तुतिः एतानयोध्यैतरसम् स्वरेति अनवभ्रमः सर्वमायुरेति विन्दते प्रजायस्मोषङ्गौपत्यम् ब्रह्मवर्चसे भवति एतानयोध्यैति श्रुणोत्यात्मानम् प्रजाम् पुतेन एतानुवारणौपवेशभिराञ्चकार एतेऽधिवादमपायेन अथवा विश्वम् पाप्मानम् स्वनियौ एतानियोऽध्येति अधिवादञ्जयति अथवा विश्वम् पाप्मानम् स्वरेति एतेनज्ञन्वेदस्वर्गकामः एतेनायष्कामः प्रजापशुकामो वा पुरस्तादृशहोदारपदञ्चमधारिकावत्फलम् दक्षिणतः प्राञ्चतुर्होदारम् अष्टादिञ्चम् पञ्चहोदारम् उत्तरतः प्राञ्चकम् षड्होदारम् उपरिष्टात्प्राञ्चकम् सप्तहोदारम् शिवत्यश्च यथावकाशग्रहान् यथावकाशम् परिग्रहान् लोकम् प्रणाश्च सर्वाः सैता देवताः क्रीडाभीष्टा भवन्ति स एव अग्निक्षिते रथसंयश्चेतव्यः वज्रोवेरथः वज्रेणैव पाप्मानम् धातुर्व्यग्निस्तृणुते अक्षस्संविदश्चेतव्यः एतावानवेरथः यावत्पक्षः रथसंविदमेव चुनुते इममेव लोकम् पशुमध्येनाभिजयति अथो अग्निस्तोमेन अन्तरिक्षमुख्येन स्वरात्रेण सर्वान् लोकान् हीनेन अथो सत्रेण परोदक्षिणा परेणैव परज्ञस्पृणोति आत्मा हि वरः एकविपुंशदक्षिणा ददाति एकविपुंशोपा इतः स्वर्गो लोकः स्वर्गम् लोकमाप्नोति असामादित्य एकविपुंशः अमुयवादित्यमाप्नोति शतम् ददाति शतानि पुरुषशतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठये सहस्रम् ददाति सहस्रसंविदस्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्ये अन्विष्टकम् दक्षिणा ददाति सर्वाणि वयागुन्धे सर्वस्याद्यये सर्वस्यावरुद्धे यदि न विन्देत मन्थाने तावतो लव्यादोदनानुवा अश्नुतेरम् कामम् यस्मै कामायाग्निश्चीयते पृष्ठो हीयन्तर्वतीन्द्रद्यात् हायि सर्वाणि वयागुन्धे सर्वस्याद्यये सर्वस्यावरुद्धे हिरण्यम् ददाति हिरण्यज्योतिरेव स्वर्गम् लोकमेति वासो ददाति तेनाय प्रजते वेदि तृतीये हि वेद त्रिसत्याभिदेवाः स सत्यमग्निम् चिनुते ऋते तत्पशुबन्धे ब्राह्मणम् ब्रूयात् मेतरेषु यज्ञेषु यो हवै चतुर्होत्रेण सुमनम् दर्पेदव्यायेन प्रजया पशुभिः नमदे एते वै चतुर्होतारो न सुमनन्दर्पेदव्याः हे ब्राह्मणा बहुविदः हे भोजदक्षिणानयेन दृष्टज्ञः स्यात् अग्निमस्तवृञ्जीरन् तेभ्यो यथा श्रद्धम् दद्यात् सुष्टमेवेदक्रियते नास्याग्निम् वृञ्जते हिरण्येष्टको भवति यावदुत्तममङ्गुलिकाण्डञ्जज्ञपुरुषा संविदम् तेजो हिरण्यम् यदि हिरण्यम् न विन्देत् शर्करात्रा उपलभ्यात् तेजोषदम् सदेजसमेवाग्निम् चिनुजे अग्निम् चित्तासौः प्रावण्याविदेन मैत्रावरुण्या वा वीर्येण वारेषव्यर्थ्यते यावदेव वीर्यम् तदस्मिन् दधाति ब्रह्मणः सायुज्यकम् सुलोकदामाप्नोति एतासामेव देवतानागम् सायुज्यम् साक्षिदागम् समानलोकदामाप्नोति येनमग्निम् चिनुते योजैनमेवम् वेद एतदेव सावित्रे ब्राह्मणम् अथो नाचिकेते यच्चामृतम् यच्चमर्त्यम् यच्च प्रादिति यच्च न सर्वास्तायष्टगा कृत्वा उपगापुदाधे तेन ब्रह्मणा तगादे पतगान्यस्पद्धमासीनः सर्वास्त्रियः सर्वान् पुंसः सर्वन्नस्त्रीमुगञ्जये सर्वास्ताः यावन्तः पागुंसभूमेः सङ्ख्यातादेव भागयाः सर्वास्ताः यावन्तभूषाः पशूनाम् पृथिव्याम् पुष्टिरहिताः सर्वास्ताः यावतीस्यगताः सर्वाः अप्सन्दश्चकाश्रिताः सर्वास्ताः यावतीः शर्कराधृत्यैः अस्याम् पृथिव्यामुधे सर्वास्ताः यावन्तोऽश्वानोऽस्याम् पृथिव्याम् प्रतिष्ठासु प्रतिष्ठिताः सर्वास्ताः यावदेर्विरुधः सर्वाः प्रतिष्ठिताः पृथिवीमनो सर्वास्ताः यावदेलोषधेः सर्वाः प्रतिष्ठिताः पृथिवीमनो सर्वास्ताः यावन्तो वृणस्पतयः अस्याम् पृथिव्यामधे सर्वास्ताः यावन्तो ग्राम्याः पशवः सर्वे आरण्याश्रये सर्वास्ताः ये द्विपादश्चतुष्पादः अपादौदरसर्पिणः सर्वास्ताः यावदाञ्जनमुच्यते देवत्रायच्छमानुषम् सर्वास्ताः यावत्कृष्णाय सन्दर्भम् देवत्रायच्छमानुषम् सर्वास्ताः यावल्लोहाय सन्दर्भम् देवत्रायच्छमानुषम् सर्वास्ताः सर्वकंसेशकम् सर्वन्तपो देवत्रायच्छमानुषम् सर्वास्ताः सर्वगम् हिरण्यगौरजनम् देवत्रायच्छमानुषम् सर्वास्ताः सर्वगम् सुवर्णगम् हरिदम् देवत्रायच्छमानुषम् सर्वास्ताष्टकाः कृत्वा उपगामदुघादधे तेन हिरादेन ब्रह्मणा तया देवदयाञ्जस्पध्रुवाधेन सर्वादिशोदिक्षो यच्चान्तर्भूतम् प्रतिष्ठितम् सर्वास्ताष्टका कृत्वा उपगामतुघादधे एतधिनादेन ब्रह्मणा तया देवतयाङ्गिरस्मध्रुवादेन अन्तरिक्षम् च केवलम् यच्चास्मिन्नन्तराहितम् सर्वास्ताः आन्तरिक्षश्रया प्रजाः गन्धर्वाप्सरदश्रये सर्वास्ताः सर्वाणुदारान् सलिलान् अन्तरिक्षे प्रतिष्ठितान् सर्वास्ताः सर्वाणुदारान् सलिलान् स्थावराक्रोश्याश्रिये सर्वास्ताः सर्वाध्वनिकम् सर्वाध्वपुंसान् हिमोयुक्तशीयते सर्वास्ताः सर्वान्वरीचेन निर्मितान् देहालोयुक्तशीयते सर्वास्ताः सर्वाविद्युतः सर्वान् समयुक्तोन् हादये गच्छशीयते सर्वास्ताः सर्वाश्रवन्ते सरितः सर्वमप्सुजनञ्जये सर्वास्ताः याश्च गोप्या याश्च नाद्याः समुद्रियाः याश्च वेषन्ते मृतप्रासदेर्याः सर्वास्ताः एतोक्तिष्ठन्ति जेमूताः याश्च वर्षन्ति वृष्टयः सर्वास्ताः तपस्ते च आकाशम् यच्चाकाशे प्रतिष्ठितम् सर्वास्ताः वायम् वयागुञ्जि सर्वाणि अन्तरिक्षजलम् जयते सर्वास्ताः अग्निम् सौर्यम् चन्द्रम् मित्रम् वरुणम् भगम् सर्वास्ताः सत्यज्ञश्रद्धान्तबोधमम् नामरूपम् च भूतानाम् सर्वास्ताष्टकाः कृत्वामदुघार्थे येन ऋषिणालेन ब्रह्मणा तया देवतयाङ्गिरस्पर्धुपाधीन सर्वान् विभगम् सर्वान् देवान् दिवि यच्छान्तद्भूतम् प्रतिष्ठितम् सर्वास्ताष्टकाः कृत्वा उपगामदुघार्थे येन ऋषिणालेन ब्रह्मणा तया देवतयाङ्गिरस्पर्धुपाधीन यामदेस्तारकाः सर्वाः विदतारोचने दिवे सर्वास्ताः ऋतवैजोगुञ्जसामाने असर्वाङ्गिरश्चये सर्वास्ताः इतिहासपुराणम् च सर्पदेवजनाश्चये सर्वास्ताः ये च लोका ये च लोकाः अन्तर्भूतम् प्रतिष्ठितम् सर्वास्ताः यच्च ब्रह्म यच्च ब्रह्म अन्तर्ब्रह्मन् प्रतिष्ठितम् सर्वास्ताः अहोरात्राणि सर्वाणि अर्धमासाविश्च केवलान् सर्वास्ताः सर्वान् ऋतोन् सर्वान् मासान् संवत्सरम् च केवलम् सर्वास्ताः सर्वम् भूतकम् सर्वम् भव्यम् यच्छातोऽसि भविष्यति सर्वास्ता इष्टगा कृत्वा उपगावदुषादधे येन ब्रह्मणा तया देवतयाङ्गिरस्मद्ध्रुवाधीन ऋजाम् प्राजे महते जुगुच्छते दक्षिणामाहुर्यजामपाराम् असर्वनामङ्गिरथाम् प्रदेये साम् नामुदेजे महते जुगुच्छते ऋग्भक्पोर्वाह्ने युगिदेवीयते निर्वेदे तिष्ठति मध्ये अन्धः सामवेदेनास्तमये महीयते वेदे सोऽन्यस्कृभेर्यः ऋग्भ्यो जातागम् सर्वशो मूर्तिमाहुः सर्वाहैवशश्वत् सर्वन्तेजः सामरूप्यगम् हशश्वत् सर्वगम्भेदम् ब्रह्मणाहैव सृष्टम् ऋग्भ्यो जातम् वैश्यम् वर्णमाहुः यजुर्वेदक्षत्रियस्याहुर्योनिम् सामवेदो ब्राह्मणानाम् प्रसूतिः पूर्वे पूर्वेभ्योमतयेदोचुः आदर्शमग्निञ्जिन्वानाः पूर्वे विश्वसुरोणताः शतम्वर्णसहस्राणि दीक्षिणाः सत्रमासुरा सहसादेत्रिगमने ब्रह्म ब्रह्माभवत्स्वयम् सत्यगमहोतैषामासेत् यद्विश्वसजासदा अमृतमेभ्यमुदगायत् रात्रम् वरिवत्सरान् भूतगमुहप्रस्तोतैषामासेत् भविष्यत्प्रतिजाहरत् प्राणो अध्वर्यलभवत् इदगम् सर्वगम् विशासदा विद्वानामृतः प्रतिप्रायच्छदध्वरे आर्तवापगातारः रस्यार्दवभवन् अर्धमासाश्च मासाश्च रमसाध्वर्यमभवन् अशकम् सद्ब्रह्मणस्तेजः अच्छावाकोभवद्दशः रमेशाम्पशास्तासेत् यद्विश्वसजासद ऊर्गायानमुदवहत् रमहोमस्तवभवत् ओजोऽभ्यष्टोग्रामुन्नः यद्विश्वसजासद अमृतमेत्रेयामेजत् मेष्ट्रेयामयजद्विजिः आग्नेयेऽध्याद्विजिः सत्याम् श्रद्धा हैवायजच्छयम् यावत्ने विश्वसजाम् आकूतिरपिणद्भविः यद्भगम् हक्षुच्चैरेभ्य उग्रे कृष्णाचावहताभ्ये वागे सागम् सुब्रह्मण्यासेत् छन्दो योगानुविदानते सर्वन्दानि तन्वानाः सर्गस्था च सर्वशः अहोरात्रे पशुपाल्यौ भोक्ता प्रेष्याभवन् प्रत्यक्षतरभवद्धाता सुविदोऽग्रविशाम्बलिः विश्वसजः प्रथमाः सत्रमासुरा सहस्रतमम् प्रसुते नयन्तः ततोहयज्ञे भुवनस्य गोपाः हिरण्मेशकुनिर्ब्रह्मनाम येन सौर्यस्त्रवदिषेदसेद्धः यदा पुत्रेण पितृमानयोनियोनौ आवेदमिन्मनुदेतम् बृहन्तम् सर्वानुभवात्मानकम् सम्पराये ब्राह्मणस्य न कर्मणा वर्धते लोकनीयान् तस्यैवात्मापदवित्तम् विजित्वा न कर्मणा लिप्यते पापकेन पञ्चपञ्चाशदः संवत्सराः पञ्चपञ्चाशदः पञ्चदशाः पञ्चपञ्चाशदः सप्तदशाः पञ्चपञ्चाशदेकविंशाः विश्वसृजायुम् सहस्रसंवत्सरम् एतेन विश्वसृजन्ता तस्माद्विश्वसृजः विश्वमेनानवप्रजायते ब्रह्मणः सायुज्यगम् स्वलोकतायन्ति एतासामेव देवतानागम् सायुज्यम् साष्टिदागम् समानलोकतायन्ति एतुर्वयन्ति एतैन प्राहुः येभ्यष्टैन प्राहुः ओ हरिः ओ काटकः समाप्तः